Lesson 6, Exercise 3, pages 64 and 65. Shrugala gajanam balam achintayan. Te parvatam prati adhavan. Akashe megha bhavantu iti jana icchanti. Te meghan पश्येयुस्तुष्येयुश्च ते बाला जनको गच्छति इति अचिन्तयन् जनकं प्रति च अधावन् नृपो मित्रस्य काव्यं पश्यतु काव्येन तुष्यतु मित्राय च धनं यच्छतु जनाश्चन्द्रमाकाशे अपश्यन् ते मित्रेभ्यः अकथयन् चन्द्र आकाशस्य भूषणम् इति गृहस्य पुरतो ह्रदो भवतु पश्चात् वृक्षा भवन्तु वृक्षेषु कुसुमानि भवन्तु इति सा नृपाय अकथयत् दासस्तृणानां भारं वनात् ग्रामे अनयत् गजस्य च पुरतः अक्षिपत् स वीरो नृपस्य प्रासादमपि दहतु तं शंसेम एव वयम् अपि सा ग्राममविशत् मित्रस्य च गृहं प्रति अगच्छत् शृगाला वने मांसं न अबिन्दन् मांसेन विना वयं न जीवेम इति ते ईश्वराय अकथयन् ग्रामे दासा वीरस्य नृपस्य गुणान् जनेभ्यः कथयन्तु नृपस्य गुणैः जनास्तुष्यन्तु नृपं च शंसन्तु इति एव अहमिच्छामि अपि अहं नृपस्य मित्रम् अहमीश्वरस्य गुणान् अशंसम् सुखञ्च अबिन्दम् मित्राणि कनकम् दीव्यन्तु अहञ्च तत् कनकम् विन्देयम् ह्रदस्य तीरे कुसुमानि भवन्ति हंसाश्च तीरे नृत्यन्ति इति अहम् अपश्यम् अलम् दुःखेन सुखस्य कृते त्वमीश्वरमेव चिन्तय ईश्वरो न भवति इति एव त्वं चिन्तयेः त्वं दैवेन एव सुखं विन्देः शृगालानां काव्येभ्यो गजा न स्पृहयन्ति दासानां वचनेभ्यो नृपा मा स्पृहयन्तु गृहस्य पश्चात् ह्रदस्य तीरे वृक्षस्य अधः सा सीदतु कमलस्य पत्राणि च गणयतु दासा वनाय गच्छन्तु वृक्षान् च कृन्तन्तु ते फलानां भारं ग्रामे नयन्तु धनं च विन्दन्तु